एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना अद्य सर्वकारस्य वर्षत्रयस्य उपलब्धिनां विषये प्रबलीकृतस्य सिंहप्रासादस्य मूलभवनस्य प्राङ्गणात् ज्ञाप्यते। द्वासप्तत्यधिकद्विसहस्रतम विक्रम वर्षस्य वैशाख मासस्य द्वादशे दिवसे दुरापन्नेन भूकम्पेन क्षतिग्रस्तस्य अवस्थित प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य सिंहप्रासादस्य पूर्वोत्तर दक्षिण भागानां प्रबलीकरणं सम्पन्नं वर्तते। एतस्य कार्यस्य सम्पन्नतामनु अद्य कार्यालयश्च उद्घाट्यते इति राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य केन्द्रीय योजना क्रियान्वयन शाखायाः आयोजना निर्देशकः श्याम किशोर सिंहः अज्ञापयत्। सिंहप्रासादस्य त्रयाणां भागानां प्रबलीकरणाय फाल्गुन मासान्तं यावत् अवधिः सन्नपि प्रथम सप्ताहे एव पूर्वोत्तर दक्षिण भागानां प्रबलीकरणं सप्ताशीतेः कोटीनां रूप्यकाणां व्ययेन सम्पन्नं वर्तते। सिंहप्रासादस्य पश्चिम भागस्य प्रबलीकरणं अष्टसप्तत्यधिकद्विसहस्रतम विक्रमाब्दस्य आश्विन मासं यावत् सम्पत्स्यते इति शाखेयं ज्ञापयति। उपप्रधानमन्त्री ईश्वर पोखरेलः भाषते प्रचण्ड नेपाल समूहस्य सत्ता नियन्त्रणस्य योजना सफला न भवति। प्रेस संगठन नेपालस्य गण्डकी प्रदेश स्तरीयां मेलां ह्य पोखरायाम् उद्घाटयन् उपप्रधानमन्त्री पोखरेलः प्रधानमन्त्रिणा केपी शर्मा ओलिना विहितानि उचित कार्याणि प्रचण्ड नेपाल समूहाय न रोचितानीति हेतोः सत्तायाः नियन्त्रणाय सदा सर्वकाराय असहयोग विहितः इति आरोपयत्। उपप्रधानमन्त्री पोखरेलः अवोचत् सत्ता पक्षादेव कार्येषु भूयो भूय अवरोध सर्जनमनु नूतन जनादेशाय निर्वाचने गमनस्य विकल्पो नाभवत्। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे प्रतिनिधि सभायाः विघटनस्य विरुद्धे पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणस्य क्रमे ह्य निवेदकानां पक्षतः प्रत्युत्तर विमर्शनं प्रारब्धं वर्तते। ह्य प्रत्युत्तर विमर्शने नव निवेदकाः विधि व्यवसायिनो व्यमृशन्। आदेशाभियाचन निवेदकानां पक्षतः प्रत्युत्तर प्रदानक्रमस्य समाप्तेः पश्चात् न्यायालयस्य सहयोगिनो वरिष्ठाधिवक्तारः बद्रीबहादुर कार्की, सतीश कृष्ण खरेलः, विजयकान्त मैनाली, पूर्णमान साक्यः, गीता पाठकश्च विमृष्टारः। सर्वोच्च न्यायालयेन बालवाटार वर्तिनः ललिता निवासस्य सर्वकारीय भूमेः व्यक्तिनां नामसु पञ्जीकरणस्य प्रकरणे प्रमाणानि प्रस्तोतुम् आदिष्टं वर्तते। न्यायाधीशद्वयस्य डाक्टर आनन्दमोहन भट्टराई हरिप्रसाद फुयाल इत्यनयोः संयुक्त न्यायपीठेन ह्यो बालवाटार वर्तिनी त्रयोदशाधिक शतरूपणी मिता भूमिः व्यक्तिनां नामसु पञ्जीकारितेति प्रकरणे प्रमाणानि प्रदातुम् अधिकार दुरुपयोगानुसन्धानायोगस्य नाम्नि आदेशः प्रदत्तो वर्तते। नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहेन प्रतिनिधिसभा विघटनस्य विरूद्धे परश्व फाल्गुनस्य पञ्चम दिवसात् पञ्चदश दिनांका वधये जनपरिचालन प्रवृत्तयः कार्यक्रमः सार्वजनिक कृताः वर्तन्ते। पेरिस डाँडा वर्तिनी दल केन्द्रीय कार्यालय ह्य आयोजिते पत्रकार सम्मेलने लोकतन्त्रस्य पक्षे जनपरिचालन प्रवृत्तयः कार्यक्रमः विधास्यन्ते इति दल प्रवक्ता नारायणकाज श्रेष्ठ अज्ञापयत्। नेपाली कांग्रेस दलेन केन्द्रीय कार्य समितेः उपवेशः परश्व बुधवासराय आहूतो वर्तते। सानेपा वर्तिनी दल केन्द्रीय कार्यालये अपराह्नस्य द्विवादने उपवेक्ष्यमाणे उपवेशे दलस्य आगामिनः चतुर्दश महाधिवेशने सामयिक राजनीतिक विषयेषु च विमृक्ष्यते इति दल कार्यालयेन ज्ञापितं वर्तते। निर्वाचनायोगेन प्रतिनिधिसभायाः सदस्यानाम् आसन निर्वाचनस्य सन्दर्भे निर्मितायाः एतद् विक्रमाब्दीयायाः निर्वाचनाचार संहितायाः प्रारूपस्य विषये ह्यो विभिन्नानां राजनैतिक दलानां प्रतिनिधिभिः सह विमृष्टम्। विमर्शने सहभागिनो राजनैतिक दलानां प्रतिनिधयः अनुगमनकर्तॄणाम् अनुगमन समितीनां च प्रभावकारितायै दलानां निर्वाचन व्ययस्य पारदर्शितायै च बलम् अददुः। एवमेव मतदानस्य पश्चात् मतदान केन्द्रात् मतपञ्जुषाणां परिवहनस्य क्रमे दलानां प्रत्याशिनां च प्रतिनिधीनां मतपञ्जुषाभिः सह आगमनस्य व्यवस्था विधातव्या। मतदानस्थले निकटदर्शी चित्राङ्कनोपकरणं प्रयोक्तव्यं चेति परामर्शः प्रतिनिधिभिः प्रदत्ताः इति निर्वाचन आयोगो ज्ञापयति। विमर्शने प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विदेन प्रतिनिधिसभा सदस्यानाम् आसन निर्वाचनाय आयोगेन निर्मितायाः एतद् विक्रमादियायाः निर्वाचनाचार संहितायाः प्रारूपाय दलानां पक्षतः परामर्शान् दातुं राजनीतिक दलानां प्रतिनिधयः अनुरुद्धाः आसन्। नेपाले कोरोना संक्रमणात् ह्य अतिरिक्ता 31,100 जना मुक्ता वर्तन्ते। एतदनु ह्यस्तनावधि संक्रमणात् मुक्तानां जनानां प्रतिशतं 10.97% प्राप्तमस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य आराष्टं 1,55,000 च निदर्शनानां परीक्षणे विहिते अतिरिक्तेषु 4,00,000 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्यस्तनावधि नेपाले कोरोना विषाणोः 1,64,000 च सक्रिय संक्रान्ताः जनाः सन्ति। अत्रान्तरे कोरोना विरुद्धस्य प्रथम चरणे द्वितीय प्राथमिकतायां स्थापिताभ्यो व्यक्तिभ्यः टीकाकरणाभियानं प्रारब्धमस्ति। स्वास्थ्य मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः अभियानेऽस्मिन् लक्षत्रयाय व्यक्तिभ्यः टीकाकरणस्य लक्ष्यानुसारेण ह्यः प्रथमे दिने 6,000 अपि अधिकैः जनैः टीकाकरणं विहितमिति अज्ञापयत्। द्वितीयचरणस्य टीकाकरणाभियानेऽस्मिन् सर्वकारीय कर्मचारिभ्यः सार्वजनिक संस्थानानां कोषालयानां च कर्मचारिभ्यः पत्रकारेभ्यः स्थानीयस्तराणां जनप्रतिनिधिभ्यः सीमा सुरक्षायां संलग्नेभ्यः सुरक्षाकर्मिभ्यश्च अवशिष्ट स्वास्थ्यकर्मिभ्यश्च टीकाकरणं विधीयते इति प्रवक्ता डाक्टर गौतमः अबोधयत्। राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्ष तप बहादुर मगर बैतडी जनपदे बलात्कारानन्तरं विहितायाः भागरथी भट्टस्य हत्यायाः सम्बन्धे अविलम्बं सूक्ष्मं निष्पक्षं प्रभावकारी च अनुसन्धानं कृत्वा दोषिणोः विधेः परिदौ आनेतुम् अनुरुणद्धि इति समाचाराः।